नमः सर्वेभ्यः. अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे एकविंशः पाठः. अद्य वयं द्वन्द्वसमासप्रकरणं सर्वसमासान्तप्रकरणं च पठामः. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. ह्यः बहुव्रीहिसमासस्य विषये समासान्तप्रत्ययानां ज्ञानं प्राप्तवन्तः. पूर्वनिपातः कथं भवति इत्यपि ज्ञातवन्तः. बहुव्रीहौ पादशब्दस्य कः समासान्तः विहितः इति प्रश्नः. तत्र सूत्रद्वयमस्ति. पादस्य लोपः अहस्त्यादिभ्यः इत्यनेन यत्र उपमानं पूर्वपदं भवति तत्र पादशब्दस्य लोपः भवति. सङ्ख्यासु पूर्वस्य इत्यनेन सङ्ख्यापूर्वकस्य सु इत्येतत् पूर्वकस्यापि लोपः भवति. बहुव्रीहौ कप् समासान्तप्रत्ययः कुत्र नित्यः कुत्र वैकल्पिकः. सूत्रत्रयमस्ति. उरः प्रभृतिभ्यः कप् नद्यरतश्च शेषाद्विभाषा इति. अतः उरः प्रभृतिगणे ये शब्दाः तेभ्यः नद्यन्तेभ्यः रुदन्तेभ्यश्च नित्यं कप् भवति. अन्यत्र यस्य शब्दस्य कोऽपि समासान्तः न विहितः तत्र विकल्पेन कप् भवति इति व्यवस्था. अभ्यासप्रश्नाः आसन्, तेषाम् अत्र उत्तराणि सन्ति. भवन्तः कृत्वा अनन्तरम् अत्र पश्यन्तु. इदानीम् अग्रे गच्छामः. बहुव्रीहिसमासे किं किम् अधीतम् इति किञ्चित् पुनरावर्तनं कृत्वा द्वन्द्वसमासं प्रविशामः. सामान्यतः समासे भागत्रयं भवति. समासविधानं, समासप्रक्रिया, समासान्ताः इति. बहुव्रीहिसमासस्य विधाने शेषो बहुव्रीहिः इत्यनेन बहुव्रीह्यधिकारः आरभ्यते. तत्र अनेकमन्यपदार्थे इति सूत्रेण बहुव्रीहिसमासः विधीयते. वस्तुतः बहुव्रीहिसमासविधायकानि अन्यानि अपि सूत्राणि सन्ति, तेन सहेति तुल्ययोगे इत्यादि. तानि लघुकौमुद्यां न स्पृश्यन्ते. एकमेव सूत्रमस्ति अनेकमन्यपदार्थे इति. अनन्तरं द्वित्राणि वार्तिकानि सन्ति. प्रादीनां धातुजस्य वाच्यः वाच उत्तरपदलोपः, नञः अस्त्यर्थानां वाच्यः उत्तरपदलोपः इति. अनेन अनेकं प्रथमान्तम् अन्यपदार्थे विद्यमानं समस्यते, सः बहुव्रीहिः इति सामान्यः अर्थः. सामान्यतः बहुव्रीहिः समानाधिकरणः, किन्तु कदाचित् व्यधिकरणबहुव्रीहिरपि भवति. प्रक्रियायां प्रधानः अंशः पुंवद्भावः. स्त्रियाः पुंवद्भाषितपुंस्का रनु समानाधिकरणे स्त्रियाम् अपूरणी प्रियादिषु इति सूत्रेण स्त्रीवाचकस्य भाषितपुंस्कस्य उत्तरपदे समानाधिकरणे स्त्रीलिङ्गे परतः पुंवद्भावः विधीयते. पूर्वनिपातस्य विषये बहुव्रीहौ सर्वेषां पदानामपि उपसर्जनत्वम् अस्ति इत्यतः विशिष्य सूत्रद्वयमस्ति. सप्तमी विशेषणे बहुव्रीहौ इत्यनेन सप्तम्यन्तस्य विशेषणस्य च पूर्वनिपातः भवति. निष्ठा इत्यनेन निष्ठान्तस्य पूर्वनिपातः भवति. समासान्ताः बहवः सन्ति बहुव्रीहौ. अप् समासान्तः अस्ति. अप्पूरणीप्रमाण्योः अन्तर्बहिर्भ्यां च लोम्नः इति सूत्रद्वयेन अप् प्रत्ययः विधीयते. षच् प्रत्ययः अस्ति. सक्ति अक्षि शब्देभ्यः भवति. ष प्रत्ययः द्वित्रिभ्यां परस्य मूर्धन् शब्दस्य भवति. लोपः पादशब्दस्य भवति यत्र उपमानं संख्यावाचकं सु इति वा पूर्वपदं भवति एवमेव काकुदशब्दस्य उद्विभ्यां पूर्वस्य नित्यं लोपः पूर्णात् परस्य विकल्पेन लोपः भवति कप् समासान्तः अस्ति अधुना एव तद्विषये उक्तं क्वचित् नित्यं भवति अन्यत्र प्रायेण विभाषया कप् समासान्तः भवति एते सर्वेपि विचाराः बहुव्रीहिसमासे दृष्टाः समासेषु केवलसमासः अव्ययीभावः तत्पुरुषः बहुव्रीहिश्च अधीतः अन्तिमः समासः अधुना अध्येतव्यः अस्ति द्वन्द्वः इति द्वन्द्वसमासविधायकं सूत्रमस्ति चार्थे द्वन्द्वः चार्थे इति सप्तमी द्वन्द्वः इति प्रथमा समासः सुप् सुपा इति अनुवर्तते द्वन्द्वसमासस्य विधानम् अनेन सूत्रेण क्रियते एकमेव सूत्रमस्ति द्वन्द्वसमासविधायकं चार्थे द्वन्द्वः इति अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते सद्वन्द्वः वस्तुतः अत्र अनेकम् इत्यस्यापि अनुवृत्तिः अस्ति अनेकम् अन्यपदार्थे इत्यतः अनेकम् इति अनुवर्तते अतः एकस्माद् अधिकं द्वौ वा भवतः बहवः वा भवतः द्वन्द्वसमासे बहूनामपि द्वन्द्वः अस्ति अतः अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते च इत्यस्य अर्थः चार्थः च इत्यस्य के अर्थाः इति पश्यामः चेत् चत्वारः चार्थाः सन्ति समुच्चय अन्वाचय इतरेतरयोगसमाहाराः चार्थाः इति उच्यन्ते च इति यः निपातः अस्ति तस्य चत्वारः अर्थाः समुच्चयः अन्वाचयः इतरेतरयोगः समाहारः इति कः भेदः एतेषाम् इति चेत् तत्र ईश्वरं गुरुं च भजस्व इति परस्परनिरपेक्षस्य अनेकस्य एकस्मिन् अन्वयः समुच्चयः समुच्चयः इत्युक्ते यत्र द्वयोः अथवा बहूनाम् एकत्र अन्वयः इति तु सर्वत्र समानम् यत्र यत्र चकारः उपयुज्यते तत्र अनेकं पदार्थं योजयित्वा एकत्र अन्वयः क्रियते इति तु सामान्यम् तत्र परस्परनिरपेक्षस्य अनेकस्य अत्र ईश्वरं भजस्व इत्यस्ति गुरुं भजस्व इत्यस्ति तत्र द्वयमपि पृथक् पृथक् कार्यं परस्परसम्बन्धः अथवा अपेक्षा नास्ति ईश्वरभजनं पृथक् गुरुभजनं पृथक् परस्परनिरपेक्षस्य अनेकस्य एकस्मिन् अन्वयः ईश्वरस्य गुरोश्च भजनक्रियायाम् अन्वयः अस्ति पृथक्तया स्वातन्त्र्येण एव अन्वयः क्रियते एतादृशः समुच्चयः इति उच्यते भिक्षामठ गां च आनय इति अन्यतरस्य आनुषङ्गिकत्वेन अन्वयः अन्वाचयः अत्र भिक्षामठ गां च आनय इत्यस्य कः अर्थः इति चेत् अत्र भिक्षाटने तात्पर्यं प्रधानं तु भिक्षाटनं भिक्षामठ भिक्षाटनार्थं गच्छ इत्यर्थः तत्र यदा भिक्षाटनार्थं मार्गे सञ्चारः क्रियते तदा कुत्रापि गृहस्य गौः दृश्यते चेत् ताम् आनय इति आनुषङ्गिकत्वम् आनुषङ्गिकत्वम् इत्युक्ते अप्राधान्यम् इत्यर्थः अत्र गोः अन्वेषणं कृत्वा तस्याः आनयनं कर्तव्यम् इति नास्ति प्रधानकार्यं तु भिक्षाटनं तत्रैव यदि सम्भवः अस्ति तर्हि एतत् कार्यमपि साधय इति एकस्य अप्राधान्यं यत्र अस्ति तत्र अन्वाचयः इत्युच्यते तत्र शब्दशः न ज्ञायते कः प्रधानं किमप्रधानम् इति प्रसङ्गशः जानाति अतः समुच्चयः उभयोः अपि प्राधान्यम् अस्ति, किन्तु परस्परसम्बन्धः कोऽपि नास्ति. स्वातन्त्र्येण स्थितयोः उभयोः एकस्मिन् अन्वयः समुच्चयः इति कथ्यते. एकं प्रधानम् एकम् अप्रधानं चेत् उभयोः मेलनम् अन्वाचयः इति उच्यते. अनयोः असामर्थ्यात् समासः न. चार्थे द्वन्द्वः इत्युक्ते चकारस्य अर्थे द्वन्द्वसमासः भवति इति उक्तं. तत्र समुच्चये वा अन्वाचये वा समासः न भवति. किमर्थम्? असामर्थ्यात्. आदौ एव दृष्टं समर्थः पदविधिः इत्यत्र समासकरणे एकार्थीभावरूपं सामर्थ्यम् अपेक्ष्यते. समुच्चये वा अन्वाचये वा तत् सामर्थ्यं नास्ति. अतः केवलं वाक्यरूपेण एव प्रयोगः, समासः न क्रियते. अन्यद्वयमस्ति इतरेतरयोगः समाहारः इति. धवखदिरौ छिन्दि इति मिलितानाम् अन्वयः इतरेतरयोगः. तत्र धवः इति कश्चिद् वृक्षः, खदिरः इति कश्चिद् वृक्षः, उभयोः अपि छेदनक्रियायां मेलनानन्तरम् अन्वयः. तत्र इतरेतरयोगः इति कथ्यते. तस्य अर्थस्य नाम इतरेतरयोगः. सः मिलित्वा एव क्रियायाम् अन्वयः. यथा रामलक्ष्मणौ गच्छतः इति स्वीकुर्मः चेत् रामलक्ष्मणयोः मिलित्वा गमनम् इत्येव अर्थः. रामः क्वचिद् अन्यत्र गच्छति, लक्ष्मणः अन्यत्र गच्छति इत्यर्थः न. मिलितयोः क्रियायाम् अन्वयः इतरेतरयोगः. केवलं समुच्चयः अस्ति चेत् पृथक् पृथक् कर्तुं शक्यते. ईश्वरं गुरुं च भजस्व इत्युक्ते ईश्वरभजनं पृथक्, गुरुभजनं पृथक्, द्वयोरपि स्वातन्त्र्येण अवस्थितिः भवति. इतरेतरयोगे तु यदि इतरेतरयोगः क्रियते तदा उभयोः पदार्थयोः मिलित्वा क्रियायाम् अन्वयः भवति इति सूक्ष्मः भेदः अस्ति समुच्चयस्य इतरेतरयोगस्य. इतरेतरयोगे समासः भवति द्वन्द्वसमासः. समाहारे संज्ञापरिभाषम् इति समूहः समाहारः. समाहारे ये पदार्थाः सन्ति तेषां वैयक्तिक अभिज्ञानं न भवति. सो यत्र अवयवाः समूहत्वेनैव भासन्ते, पृथक् पृथक् व्यक्तिशः न भासन्ते, सः समाहारः. सो बोत् इतरेतरयोग एण्ड् समाहार आर् वेर् वि आर् अप्लैङ्ग् संथिङ्ग् टु अ ग्रूप्. इतरेतरयोगे अवयवाः पृथक् पृथक् विद्यन्ते. सो इन् इतरेतरयोग वि ऐडेण्टिफै द कोम्पोनेण्ट्स् एस् बीङ्ग् सेपरेट्. इन् समाहार द इण्डिविजुवल् कोम्पोनेण्ट्स् लूस् देर् ऐडेण्टिटि, इट् इस् ऐडेण्टिफैड् एस् अ सिङ्गल् ग्रूप् इत्यर्थः. इतरेतरयोगे समाहारे च द्वन्द्वसमासः भवति. अतः द्वन्द्वसमासः द्विविधः, इतरेतरयोगः समाहारः इति. इतरेतरयोगद्वन्द्वः समाहारद्वन्द्वः इति. उभयोः अपि विधानं चार्थे द्वन्द्वः इत्यनेन सूत्रेण एव भवति. सामान्यतः सर्वत्रापि विवक्षानुगुणम् इतरेतरयोगः अपि भवति, समाहारः अपि भवति. यथा रामः लक्ष्मणः रामलक्ष्मणौ, रामः लक्ष्मणः अनयोः समाहारः रामलक्ष्मणम् इत्यपि वक्तुं शक्यते. थियोरेटिकली यु केन् यूस् बोत् इतरेतरयोग एण्ड् समाहार एव्रिवेर् बेस्ड् आन् द विवक्षा. किन्तु केषुचित् स्थलेषु सूत्रेण एव समाहारः नित्यं विधीयते. यत्र यत्र इतरेतरयोगः अस्ति तत्र समाहारः अपि कर्तुं शक्यते. किन्तु केषुचित् स्थलेषु समाहारः एव भवति, इतरेतरयोगः न भवति इति सूत्रेण उच्यते. अतः तत्र समाहारद्वन्द्वः नित्यः, अन्यत्र विवक्षानुगुणम् उभयं कर्तुं शक्यते. कुत्र समाहारद्वन्द्वः नित्यः? तत्र वस्तुतः पञ्चदश सूत्राणि सन्ति, किन्तु प्रमुखम् एकमेव सूत्रम् अत्र दीयते, द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्। द्वन्द्वः च प्राणितूर्यसेनाङ्गानाम्, एकवचनं द्विगुरेकवचनम् इत्यतः एकवचनम् इति अनुवर्तते। एकवद्भावः अतिदिश्यते इत्युक्ते एषां द्वन्द्वः एकवत्, एकं नाम समूहः, एकः समूहः, अतः यदा द्वन्द्वः क्रियते तदा सर्वदापि एकवद्भावः समाहारः एव भवति इत्यर्थः। केषां प्राणितूर्यसेना अङ्गानां, प्राण्यङ्गानि, तूर्याङ्गानि, सेनाङ्गानि, प्राणिनाम् अङ्गानि, अवयवाः, तेषां द्वन्द्वः। उदाहरणं दीयते पाणिपादम्, पाणी च पादौ च एतेषां समाहारः पाणिपादम्। तत्र पाणिपादाः इति न भवति, पाणिपादं प्रक्षालय इत्येव प्रयोगः। प्राणिनाम् अङ्गानि, अन्यानि अपि अङ्गानि भवितुमर्हन्ति, सामान्यतः इदं दीयते। मार्दङ्गिकवैणविकं, तूर्यं, तूर्यं नाम वाद्यं, सङ्गीतवाद्यम् इत्यर्थः। सङ्गीत बेण्ड्, तूर्य इस् लिटरली अ बेण्ड्, दट् इस् पीपल् हू प्ले डिफरेण्ट् इन्स्ट्रुमेण्ट्स्, तेषां द्वन्द्वः समाहारः एव भवति। मार्दङ्गिकवैणविकं, मार्दङ्गिकाश्च वैणविकाश्च तेषां समाहारः। मृदङ्गं ये वादयन्ति ते मार्दङ्गिकाः, वीणां ये वादयन्ति ते वैणविकाः। मार्दङ्गिकाश्च वैणविकाश्च मार्दङ्गिकवैणविकम् इति समाहारः भवति। सेनायाः अङ्गानि, सेनायाः चत्वारि अङ्गानि प्रसिद्धानि, रथ, अश्व, गज, पदाति। रथाः, गजाः, अश्वाः, पदातयः इति सेनायाः चत्वारि अङ्गानि भवन्ति, तेषां द्वन्द्वः समाहारः। रथिकाश्च अश्वारोहाश्च, रथिकाश्वारोहम् इति समाहारः भवति। एवं प्राण्यङ्गानां, तूर्याङ्गानां, सेनाङ्गानां च नित्यः समाहारद्वन्द्वः, तत्र इतरेतरयोगः न भवति। अन्येषाम्, एतद्विहाय अन्ये ये अन्यानि यानि पदानि, तेषां विवक्षानुगुणं समाहारः अपि भवति, इतरेतरयोगः अपि भवति इति द्वन्द्वसमासस्य विधानम्। प्रश्नाः? नो, अग्रे गच्छामः। द्वन्द्वसमासे उभयपदार्थप्राधान्यमस्ति। अनेकं चार्थे विद्यमानं समस्यते इत्युच्यते, तत्र उभयपदार्थप्रधानः द्वन्द्वः। तर्हि पूर्वनिपातः कस्य भवति इति प्रश्नः भवति। यथा इदानीं हरश्च हरिश्च इति उच्यते चेत् हरिहरौ इत्येव वा, हरहरी इति वक्तुं शक्यते वा, कः नियमः इति प्रश्नः भवति। अतः द्वन्द्वसमासे पूर्वनिपातस्य नियमनार्थं बहूनि सूत्राणि सन्ति। तेषु एकं सूत्रमस्ति राजदन्तादिषु परम्। एतत्तु केवलं द्वन्द्वसमासस्य इति न, इट् इस् अ कलेक्षन् आफ् अपवादस्। राजदन्तादिः इति कश्चित् गणः, तस्मिन् गणे पूर्वं परं भवति। यत्तु अन्यनियमानुगुणं पूर्वं प्रयोक्तव्यम् आसीत्, तस्य परनिपातः अनेन सूत्रेण क्रियते। सो राजदन्तादिगण इस् एक्चुअलि अ कलेक्षन् आफ् वर्ड्स् इन् विच् द पूर्वनिपात, द वर्ड् विच् शुड् एक्चुअलि हाव् बीन् पूर्वपद, ಈಸ್ ಫೌಂಡ್ ಆಸ್ ಉತ್ತರ ಪದ ಇನ್ ಪ್ರಯೋಗ. ಪ್ರಯೋಗ ಸಮರ್ಥನಾರ್ಥಮೇವ ಅಯಂ ಗಣಃ ಕ್ರಿಯತೆ, ಪರನಿಪಾತ ವಿಧಾನಂ ಕ್ರಿಯತೆ. ಏಷು ಪೂರ್ವ ಪ್ರಯೋಗಾರ್ಹಂ ಪರಂ ಸ್ಯಾತ್, ಯತ್ತು ವಸ್ತುತಃ ಪೂರ್ವಪದಂ ಭವಿತುಂ ಅರ್ಹತಿ ಸಹ ಪರತ್ರ ಶ್ರೂಯತೆ ಇತ್ಯರ್ಥಃ. ದಂತಾನಾಂ ರಾಜಾ ರಾಜದಂತಃ ಇತಿ ಉದಾಹರಣಂ. ಯಥಾ ಕಿಂ ವಾನರಾಣಾಂ ರಾಜಾ ವಾನರರಾಜಃ, ಮೃಗಾಣಾಂ ರಾಜಾ ಮೃಗರಾಜಃ, ಏವಂ ದಂತಾನಾಂ ರಾಜಾ ದಂತರಾಜಃ ಇತಿ ಭವೇತ್. ಷಷ್ಠೀ ಇತ್ಯತ್ರ ಪ್ರಥಮ ನಿರ್ದಿಷ್ಟತ್ವಾತ್ ಷಷ್ಠ್ಯಂತಸ್ಯ ಉಪಸರ್ಜನ ಸಂಜ್ಞಾ ಭವತಿ. ಉಪಸರ್ಜನಂ ಪೂರ್ವಂ ಇತ್ಯನೇನ ದಂತಶಬ್ದಸ್ಯ ಪೂರ್ವನಿಪಾತಃ ಯುಕ್ತಃ. ಕಿಂತು ರಾಜದಂತಃ ಇತ್ಯೇವ ಪ್ರಯೋಗಃ ಅಸ್ತಿ, ದಂತರಾಜಃ ಇತಿ ಪ್ರಯೋಗಃ ನಾಸ್ತಿ. ಅತಃ ರಾಜದಂತಾದಿಹಿ ಇತಿ ಗಣಃ ಕೃತಃ. ತಸ್ಮಿನ್ ಗಣೇ ಯೇ ಶಬ್ದಾಃ ತತ್ರ ವ್ಯತ್ಯಯಃ ದೃಶ್ಯತೆ. ಏವಮೇವ ರಾಜಯೋಗಃ ಇತಿ ಕಥ್ಯತೆ. ಕಃ ರಾಜಯೋಗಃ? ಯೋಗಾನಾಂ ರಾಜಾ ರಾಜಯೋಗಃ, ಯೋಗೇಷು ಪ್ರಧಾನಃ ಇತ್ಯರ್ಥಃ. ತತ್ರಾಪಿ ಯೋಗರಾಜಃ ಇತಿ ಭವೇತ್, ಕಿಂತು ರಾಜಯೋಗಃ ಇತಿ ಪ್ರಯೋಗಃ. ತತ್ರಾಪಿ ಏವಮೇವ ಸಮರ್ಥನಂ ವಕ್ತವ್ಯಂ ಭವತಿ. ರಾಜದಂತಃ ಇತಿ ತು ತತ್ಪುರುಷ ಸಮಾಸಃ. ತತ್ರ ಪೂರ್ವಂ ಪ್ರಯೋಗಾರ್ಹಂ ದಂತ ಇತಿ ಪದಂ ಪರತ್ರ ದೃಶ್ಯತೆ. ತತ್ರ ಕೇಚನ ದ್ವಂದ್ವ ಸಮಾಸಾಃ ಅಪಿ ಸಂತಿ. ಧರ್ಮಾದಿಷು ಅನಿಯಮಃ ಇತಿ ಕಥ್ಯತೆ. ತೇಷು ದ್ವಂದ್ವ ಸಮಾಸೇಷು ಅನಿಯಮಃ ನಾಮ ನಿಯಮಃ ನಾಸ್ತಿ. ಧರ್ಮಶ್ಚ ಅರ್ಥಶ್ಚ ಇತ್ಯತ್ರ ಅರ್ಥಧರ್ಮೌ ಇತ್ಯಪಿ ಪ್ರಯೋಗಃ ಕರ್ತುಂ ಶಕ್ಯತೆ, ಧರ್ಮಾರ್ಥೌ ಇತ್ಯಪಿ ಪ್ರಯೋಗಃ ಕರ್ತುಂ ಶಕ್ಯತೆ ಇತಿ ಅನೇನ ತತ್ರ ಗಣಸೂತ್ರಂ ಅಸ್ತಿ. ಧರ್ಮಾದಿಶ್ವನಿ ನಿಯಮಃ ಇತಿ ಶಬ್ದಾರ್ಥೌ ಅರ್ಥಶಬ್ದೌ ಇತಿ ಕೇಚನ ಪದಾನಿ ಕಾನಿಚನ ಪದಾನಿ ಸಂತಿ ಯತ್ರ ಉಭಯಥಾಪಿ ಪ್ರಯೋಗಃ ದೃಶ್ಯತೆ. ಏತದತಿರಿಚ್ಯ ದ್ವಂದ್ವ ಸಮಾಸೇ ವಿಶಿಷ್ಯ ಪೂರ್ವನಿಪಾತ ಸೂತ್ರಾಣಿ ಸಂತಿ. ದ್ವಂದ್ವೇ ಘಿ ಇತ್ಯುಚ್ಯತೆ, ಪೂರ್ವಂ ಇತಿ ಅನುವರ್ತತೆ. ಇದಂ ವಿಧಿಸೂತ್ರಂ ಪೂರ್ವನಿಪಾತ ವಿಧಾನಂ, ಉಪಸರ್ಜನಂ ಪೂರ್ವಂ ದ್ವಂದ್ವೇ ಘಿ ಇತಿ ಅಗ್ರಿಮಂ ಸೂತ್ರಂ. ದ್ವಂದ್ವೇ ಘಿ ಸಂಜ್ಞಂ ಪೂರ್ವಂ ಸ್ಯಾತ್. ಘಿ ಇತಿ ಸಂಜ್ಞಾ ಯಸ್ಯ ಭವತಿ ತಸ್ಯ ಪದಸ್ಯ ಪೂರ್ವನಿಪಾತಃ ಭವತಿ ದ್ವಂದ್ವ ಸಮಾಸೇ. ಘಿ ಇತ್ಯುಕ್ತೆ ಕಿಂ ಜಾನಂತಿ ವಾ? ಘಿ ಸಂಜ್ಞಾ ಪೂರ್ವಂ ಕದಾಚಿತ್ ಶ್ರುತ? ನ ಶ್ರುತ. ತತ್ರ ಶಬ್ದ ಪ್ರಕರಣೇ ಭವತಿ. ಶೇಷೋಘ್ಯ ಸಖಿ ಇತಿ ಸೂತ್ರಮಸ್ತಿ. ನದೀ ಸಂಜ್ಞಾಂ ಹ್ಯಃ ದೃಷ್ಟವಂತಃ ಕಿಲ, ಯೂ ಸ್ತ್ರೀಯಾಖ್ಯೌ ನದೀ. ತತಃ ನದೀ ಸಂಜ್ಞಾಯಾಃ ಕಾನಿಚನ ಸೂತ್ರಾಣಿ ಸಂತಿ. ಶೇಷಃ ನದೀ ಸಂಜ್ಞಾ ಯಸ್ಯ ನಾಸ್ತಿ ತಸ್ಯ ಘಿ ಇತಿ ಸಂಜ್ಞಾ ಭವತಿ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಸಾಮಾನ್ಯತಃ ಹ್ರಸ್ವ ಇಕಾರಾಂತ ಹ್ರಸ್ವ ಉಕಾರಾಂತಃ ಪುಲ್ಲಿಂಗ ನಪುಂಸಕಲಿಂಗ ಶಬ್ದಾಃ. ಹರಿಹಿ ಕವಿಹಿ ವಾಲ್ಮೀಕಿಹಿ ಇತ್ಯಾದಿ ಶಬ್ದಾಃ ಉಕಾರಾಂತ ಶಬ್ದಾಃ, ಗುರುಃ ಶಂಭುಃ ಮಧು ಇತ್ಯಾದಿ. ಏವಂ ಇಕಾರಾಂತ ಉಕಾರಾಂತ ಪುನ್ನಪುಂಸಕ ಶಬ್ದಾಃ ಘಿಸಂಯಕಾಃ ಭವಂತಿ ಸಾಮಾನ್ಯತಃ. ಅತಃ ಏತೇಷಾಂ ಶಬ್ದಾನಾಂ ಪೂರ್ವನಿಪಾತಃ ಭವತಿ. ಹರಿಶ್ಚ ಹರಶ್ಚ, ಅತ್ರ ಹರ ಹರಿ, ಹರಿ ಇತ್ಯಸ್ಯ ಘಿಸಂಜ್ಞಾ ಅಸ್ತಿ. ಅತಃ ಹರಶ್ಚ ಹರಿಶ್ಚ ಅಪಿ ಹರಿಹರೌ ಏವ ಹರಹರಿ ಇತಿ ನ ಭವತಿ, ಹರಿಹರೌ ಇತ್ಯೇವ ಪ್ರಯೋಗಃ. ದ್ವಂದ್ವೇ ಘಿಸಂಜ್ಞಂ ಪೂರ್ವಂ ಭವತಿ ಇತಿ ನಿಯಮಃ. ಅಗ್ರಿಮಂ ಸೂತ್ರಮಸ್ತಿ అజాద్యదంతం. పూర్వం ఇది అనువర్తతే అజాది అదంతం. యహ శబ్ద అజాది అదంత. అదంత ఇత్యుక్తే హ్రస్వకారాంత. ఆదౌ ప్రథమ వర్ణ అచ్, యః కోపి స్వర. అంతిమ వర్ణ హ్రస్వ అకార. తస్యాపి పూర్వనిపాత భవతి. అజాది అదంతం. ఈశ కృష్ణౌ. ఈశశ్చ కృష్ణశ్చ. అత్ర ఉభయోరపి ఘిసంజ్ఞా నాస్తి. యతోహి ఈశ ఇత్యపి అదంతం, కృష్ణ ఇత్యపి అదంతం. అతః ఈశ కృష్ణౌ ఇత్యత్ర ద్వంద్వే ఘీ ఇత్యస్య అన్వయః న భవతి. ఈశః కృష్ణః కస్య పూర్వనిపాతః ఇతి చేత్ అజాది అదంతం. ఈ ఇతి అజాదిః, శ ఇతి అదంతః. అజాద్యదంత్వాత్ ఈశ కృష్ణౌ ఇత్యేవ భవతి, కృష్ణేశౌ ఇతి న భవతి. తృతీయం సూత్రమస్తి అల్పాచ్ తరం. పూర్వం ఇతి అనువర్తతే ద్వంద్వ సమాసే న్యూన స్వరయుక్తం పదం అచ్. అల్పాచ్, అచ్ ఇత్యుక్తే అకార చకార పర్యంతం స్వరాః. అల్పః అచ్ యస్య అల్పాచ్. అల్పాచ్ తర, దట్ విచ్ హ్యాస్ అ లెస్సర్ నంబర్ ఆఫ్ స్వరస్, తస్య పూర్వం ప్రయోగః భవతి. అర్థాత్ లఘు శబ్దస్య, ఏకః శబ్దః స్మాల్ ఇత్యుక్తే వర్ణద్వయయుక్తః, అపరః అక్షరత్రయయుక్తః చేత్ అక్షరద్వయయుక్తస్య పూర్వం ప్రయోగః భవతి. శివకేశవౌ. శివశ్చ కేశవశ్చ శివకేశవౌ. అత్ర శివ ఇత్యత్ర అజ్ ద్వయమస్తి, కేశవ ఇత్యత్ర అచ్ త్రయమస్తి. అతః అల్పాచ్ తరం శివ ఇత్యస్య పూర్వ ప్రయోగః భవతి. ఏవమేవ కృష్ణశ్చ అర్జునశ్చ, అర్జునశ్చ కృష్ణశ్చ కృష్ణార్జునౌ ఇత్యేవ. ఏవం త్రయః నియమాః సంతి. ఘిసంజ్ఞా అస్తి చేత్ తస్య పూర్వనిపాతః భవతి. అజాది అదంతం అస్తి చేత్ పూర్వనిపాతః భవతి. అల్పాః అచః సంతి చేత్ తస్య పూర్వనిపాతః భవతి. ఇదానీం ఏకస్య పదస్య ఘిసంజ్ఞా అస్తి, అన్యస్య పదస్య అల్పాచకత్వం అస్తి. తర్హి కస్య పూర్వనిపాతః భవతి? వన్ వర్డ్ ఇస్ ఘీ, ద అదర్ వర్డ్ హ్యాస్ లెస్సర్ నంబర్ ఆఫ్ అచ్, సో విచ్ వన్ ఆఫ్ దెమ్ వుడ్ బి పూర్వ? ఉదాహరణం దీయదామి. వ్యాసశ్చ వాల్మీకిశ్చ. వ్యాసః వాల్మీకిః ఇత్యస్తి. వాల్మీకి ఇత్యస్య ఘిసంజ్ఞా అస్తి, ఇకారాంత పుల్లింగః ఘిసంజ్ఞా అస్తి. వ్యాసః ఇత్యత్ర తు అచ్ ద్వయం, వాల్మీకిః ఇత్యత్ర అచ్ త్రయం. అతః వ్యాస శబ్దః అల్పాచ్ తరః, వాల్మీకి శబ్దః ఘిసంజ్ఞకః. కస్య పూర్వనిపాతః భవతి? వ్యాసస్య వా వాల్మీకేః వా? వాల్మీకి వ్యాసవు ఇది వక్తవ్యం వా, వ్యాస వాల్మీకి ఇది వక్తవ్యం వా? వ్యాసస్యేవ కిమర్థం శుభా భగిని?
తథైవ శృతం మయా.
సమ్యగేవ. అత్ర పరసూత్రం కిల, అల్పాచ్తరం ఇది పరసూత్రం. ద్వంద్వే ఘీ ఇత్యనేన ఘీ సమ్యకస్య పూర్వనిపాతః కరణీయః వా, అల్పాచ్తరం ఇత్యనేన కరణీయం వా ఇతి చేత్ క్రమశః ఏవ అస్తి. 32, 33, 34. ద్వంద్వే ఘీ ఇతి 32, అజాద్యదంతం ఇతి 33, అల్పాచ్తరం ఇతి 34. అతః తత్ర పరస్పరం విప్రతిషేధః అస్తి చేత్ అల్పాచ్తరం ఇస్ ద స్ట్రాంగెస్ట్. So if the two words have different number of letters, तत्र प्रश्नः एव नास्ति, यः अल्पास्तरः तस्यैव पूर्वनिपातः भवति. यत्र तु समानः अस्ति, वेर् बोथ् हाव् द सेम् नम्बर् आफ् लेटर्स्, तत्र द्वन्द्वेघी इत्यनेन वा अजाद्यदन्तम् इत्यनेन वा निर्णयः क्रियते. तत्र सूत्रेषु परस्परं विप्रतिषेधः भवति. यदि एकः घिसंज्ञकः अपरः अजाद्यदन्तः अस्ति चेत् अजाद्यदन्तस्यैव पूर्वनिपातः भवति इति क्रमम् आश्रित्य तदा निर्णयः क्रियते. किन्तु द्वन्द्वसमासे पूर्वनिपातार्थं सूत्रत्रयमपि स्मर्तव्यमेव. एकं द्वन्द्वे घि अजाद्यदन्तम् अल्पाच्तरम् इत्यस्ति. अन्यः अपि वस्तुतः एकः नियमः अनुस्रियते, अत्र नास्ति, मार्तिकमस्ति. यत्र क्रमः भवति, यथा इदानीं युधिष्ठिरश्च भीमश्च अर्जुनश्च इत्यस्ति, तत्र वस्तुतः पश्यामः चेत् अल्पास्तमं भवति भीमशब्दः. भीम अर्जुन युधिष्ठिराः इति वक्तुं शक्यते, किन्तु युधिष्ठिरः ज्येष्ठः. यत्र तादृशः क्रमः अस्ति तत्र क्रमानुगुणम् एव तेषां द्वन्द्वः क्रियते. युधिष्ठिरभीमार्जुनाः, रामलक्ष्मणभरतशत्रुघ्नाः इत्यादि, यत्र क्रमः प्रसिद्धः, कदाचित् तु क्रमम् आश्रित्य अपि क्रियते. किन्तु सूत्रशः क्रियते चेत् अल्पाच्तरस्यैव पूर्वनिपातः करणीयः. अग्रे द्वन्द्वसमासे समासान्तप्रत्ययः. द्वन्द्वसमासस्य विधानं दृष्टं. चार्थे द्वन्द्वः इत्यनेन द्वन्द्वः विधीयते. तत्र केषुचित् स्थलेषु समाहारः नित्यं भवति, द्वन्द्वश्च प्राणितुर्यसेनाङ्गानाम् इति. अन्यत्र इतरेतरयोगो वा समाहारो वा विवक्षानुगुणं कर्तुं शक्यते. द्वन्द्वसमासे पूर्वनिपातस्य निश्चयार्थं सूत्राणि दृष्टानि. द्वन्द्वसमासे समासान्तप्रत्ययः, एक एव प्रत्ययः अत्र दीयते. द्वन्द्वात् चु द ष हान्तात् समाहारे टच् इति अनुवर्तते. टच् इति समासान्तप्रत्ययः, अनेन सूत्रेण विधीयते. द्वन्द्वसमासे समाहारद्वन्द्वसमासे यदि चवर्गान्तः दकारान्तः षकारान्तः हकारान्तो वा शब्दः अस्ति, चवर्ग दकार षकार हकाराः अन्ते सन्ति चेत् टच् इति समासान्तः भवति. चवर्गान्तात् द ष हान्ताच्च द्वन्द्वात् टच् स्यात् समाहारे. वाक् च त्वक् च वाक् त्वचम्. अत्र त्वक् इत्यत्र प्रातिपदिकं भवति त्वच्. वाक् त्वच् इत्यस्ति चवर्गस्य शब्दः. टच् क्रियते चेत् वाक् त्वच् इति अकारान्तत्वं भवति. समाहारः अस्ति. समाहारे इदं सूत्रं द्विगुसमासे एव अधीतं. स नपुंसकम्. समाहारद्वन्द्वः सर्वदा नपुंसकलिङ्गे एकवचने एव भवति, अतः वाक् त्वचम् इति रूपं भवति. त्वक् स्रजम्. त्वक् च स्रक् च. स्रज् इति जकारान्तशब्दः, सः अपि चवर्गान्तः, अतः तत्रापि टच् भवति. शमीदृषदम्. शमी च दृषत् च. दृषत् इति दृषत् दृषदौ दृषदः. दृषद् इति दकारान्तः शब्दः, तत्र अकारान्तत्वं भवति. वाक् त्विषम्. वाक् च त्विट् च. त्विष् इति षकारान्तः शब्दः. छत्रोपानहम्. छत्रं च उपानहौ च. उपानह् इति हकारान्तम्. चूदशहान्तात्. वाक् त्वच् त्वक्स्रज् इत्यत्र चवर्गान्तः, दकारान्तः, षकारान्तः, हकारान्तः. अत्र सर्वत्रापि अदन्तत्वं भवति. टच् समासान्तः क्रियते. द्वन्द्वात् चु द ष हान्तात् समाहारे इति सूत्रम्. समाहारे किं प्रावृक्षरदौ यत्र समाहारद्वन्द्वः तत्रैव समासान्तः यत्र तु इतरेतरयोगः तत्र सामान्यं शरत् शरदौ शरदः दकारान्तः दकारान्त एव भवति प्रावृट् च शरत् च प्रावृट् इत्यस्य वृष्टिकालः इत्यर्थः शरत् इत्यस्य शरत्कालः प्रावृट् च शरत् च प्रावृट् शरदौ शरत् शरदौ शरदः इति अनेन द्वन्द्वसमासप्रकरणं समाप्तम् द्वन्द्वसमासः तत्र पूर्वनिपातः समासान्तप्रत्ययश्च दृष्टः तत्र मध्ये वरदराजेन एकं सूत्रं योजितमस्ति पितामात्रा इति वस्तुतः सूत्रक्रमे मध्ये कुत्रचित् योजितवान् किन्तु तत् सूत्रं द्वन्द्वसमाससम्बद्धं न सः एकशेषविधायकं तत् सूत्रम् अतः एकशेषस्य विषये किञ्चिदिव वक्ष्यामि प्रयोगेषु प्रयोजनाय भवति एकशेषः इति पृथक् वृत्तिः कृत् तद्धित समास एकशेष सनाद्यन्तधातवः इति पञ्चवृत्तयः सन्ति तत्र एकशेषवृत्तिः अपि अन्तर्भवति एकशेषः समासः न इति प्रथमं ज्ञातव्यम् यतोहि बहुधा भ्रमः भवति विग्रहवाक्यं दृष्ट्वा समासः इव दृश्यते विग्रहवाक्यं तु समासस्य विग्रहवाक्यम् इव भवति किन्तु तत्र अन्ते यत् पदमस्ति तत् पदद्वयं न भवति अतः सुप् सुपा समासः इति तत्र न अन्वेति अपि च एषः समासाधिकारे नास्ति अष्टाध्याय्याम् अतः एकशेषः समासः न तर्हि एकशेषः इत्युक्ते किम् एकस्य शेषः एकशेषः यत्र पदद्वयं भवति तेषु एकः एव शिष्यते सो ओन्ली वन् वर्ड् रिमेन्स् द अदर् वर्ड्स् आर् डिलीटेड् दट् इस् काल्ड् एकशेष द्वयोः पदयोः मध्ये एक एव शिष्यते किन्तु तेन उभयोः अर्थः बुध्यते पूर्वं यत् पदद्वयमासीत् द्वयोरपि अर्थः अस्ति किन्तु पदम् एकमेव पदं शिष्यते सः एकशेषः इति कथ्यते सामान्यतः सर्वेषु शब्देषु द्विवचने बहुवचने च एकशेषः भवति यथा रामश्च 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 लक्ष्मणश्च इत्यस्ति चेत् किं कुर्मः रामलक्ष्मणौ इति कुर्मः एवमेव यदि रामश्च रामश्च तदा रामरामौ इति भवेत् किल यथा रामलक्ष्मणौ तथा रामरामौ एवमेव त्रयः सन्ति चेत् राम राम रामाः दश बालाः सन्ति चेत् दशवारं बाल 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 उक्त्वा अन्ते बालाः इति करणीयं स्यात् तत्र समासः क्रियते चेत् किन्तु तत्र एकशेषः विधीयते अतः एकमेव पदं भवति राम इति प्रातिपदिकम् एकमेव भवति वचनम् आश्रित्य अस्माभिः ज्ञायते रामश्च रामश्च रामौ रामश्च 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 रामाः इत्यत्र सर्वत्रापि एकशेषः उपयुज्यते सर्वेषां शब्दानां द्विवचने बहुवचने एकशेषः भवति एतदतिरिच्यापि अन्यत्र बहुत्र अस्माभिः एकशेषः उपयुज्यते सामान्यतः कुत्र कुत्र एकशेषः भवति इति पश्यामः चेत् पुल्लिङ्गस्त्रीलिङ्गयोः प्रयोगे सामान्यतः पुल्लिङ्गमेव शिष्यते तत्र स्त्रीपुंवच इति सूत्रमस्ति अतः हंसश्च हंसी च हंसः हंसी A male swan and a female swan. Tatra hamsau ityeva prayogaha. Evam simhascha simhicha simhau. Simhascha simhyascha. If there are many lions and many lionesses, militva simhaha ityeva kathyate. Simha simhyaha iti prithak prayogaha nakriyate. Sarvatrapi pullinga strilinga padayohu prayoge. पुल्लिङ्गपदस्य शेषः भवति एवमेव यत्र नामपदस्य सर्वनामपदस्य च मेलनं क्रियते. सर्वनाम इत्युक्ते एते, तत् एतत् यद् युष्मद् अस्मद् एतेषां प्रयोगः क्रियते चेत् सर्वनामपदमेव शिष्यते. उदाहरणार्थं रामश्च सः च इत्यस्ति, रामः च सः च तौ इत्येव, तत्र रामशब्दः न भवति. सः इति तद्शब्दः अस्ति चेत् तौ तद्शब्दः एव शिष्यते. रामश्च त्वं च युवाम्, त्वच्छब्दः युष्मच्छब्दः एव भवति. एवं रामश्च अहं च आवाम्. यत्र नामपदं सर्वनामपदम् एतयोः योजनं क्रियते तत्र सर्वनामपदस्यैव शेषः भवति, शिष्यते. एतत् सर्वमपि एकशेषः एव. एवं यदि सर्वनामद्वयमस्ति, यथा तच्छब्दः अस्ति युष्मच्छब्दः अस्ति, अथवा तच्छब्दः अस्ति अस्मच्छब्दः अस्ति, तत्र युष्मदस्मदोरेव शेषः भवति. सः च त्वं च युवाम्, एषः च अहं च आवाम्. सर्वनाम्नोः परस्परप्रयोगे युष्मद्शब्दः अथवा अस्मद्शब्दः भवति. यदि युष्मदस्मदोरेव परस्परं मेलनं भवति, त्वं च अहं च, किं भवति तत्र? त्वं च अहं च गच्छ, किं गच्छतः वा गच्छावः वा? अस्माकम् आवा उत्तमपुरुषस्य एव प्रयोगः आवां गच्छावः इत्येव. त्वं च अहं च आवाम्, अस्मच्छब्दः शिष्यते. एतत् सर्वमपि एकशेषे एव अन्तर्भवति. सूत्राणि सन्ति तत्र, स्त्रीपुंवच्च इत्यस्ति, इत्यदानीनि सर्वैर्नित्यम् इत्यादि. तानि सूत्राणि अत्र लघुकौमुद्यां न सन्ति. प्रयोगस्तु ज्ञातव्यः, यतोहि एवमेव प्रयोगः क्रियते. एकशेषस्य एकमेव सूत्रं दीयते, पिता मात्रा इति. पिता मात्रा एकशेषः, सर्वपाणाम् एकशेष एकविभक्तौ इत्यतः एकशेषः इति अनुवर्तते. अन्यतरस्याम् इत्यपि अनुवर्तते. मात्रा सह उक्तौ पिता वा शिष्यते. पिता च माता च इति यदा उच्यते तदा विकल्पेन पितुः एकशेषः भवति. यदा एकशेषः भवति तदा पितरौ इति प्रयोगः. पेरेण्ट्स् इत्यर्थे माता च पिता च पितरौ. जगतः पितरौ वन्दे पार्वती परमेश्वरौ. तत्र द्वौ पितरौ इत्यर्थः न, माता च पिता च इत्यर्थः. पितृशब्दस्य एकशेषः भवति तदा पितरौ इति रूपम्. विकल्पेन एकशेषः इति उक्तत्वात् मातापितरौ इत्यपि प्रयोगः अस्ति. माता च पिता च द्वन्द्वसमासः क्रियते चेत् मातापितरौ, एकशेषः क्रियते चेत् पितरौ इति एकशेषः. अत्र अन्तिमं प्रकरणमस्ति समासे समासान्ताः इति. यद्यपि तेषु तेषु समासेषु तत्तत्सम्बद्धाः समासान्तप्रत्ययाः अधीताः, अव्ययीभावे शरदादिभ्यः इत्यादि समासान्ताः आसन्, तत्पुरुषे राजाः सखिभ्यः तत् इत्यादि, बहुव्रीहौ सख्यक्ष्णोः इत्यादि, द्वन्द्वात् चुदशहान्तात् समाहारे, तत्तत् समासस्य विशिष्य ये समासान्तप्रत्ययाः ते तस्मिन् तस्मिन् प्रकरणे दृष्टाः. सर्वेषु समासेषु सामान्याः केचन समासान्तप्रत्ययाः सन्ति. यः कोऽपि समासः भवतु, तत् पदमस्ति चेत् सः समासान्तः भवति. तादृशाः प्रत्ययाः अस्मिन् प्रकरणे दीयन्ते. ऋक्पूरब्धूः पथामानक्षे इति एकं सूत्रम्. ऋक् पूर् अप् धूः पथाम् इति षष्ठी बहुवचनम्. अ इति प्रथमाविभक्तौ, अ इति प्रत्ययः, अनक्षे इति सप्तमी. समासान्ताः तद्धिताः. ஏதேஷாம் சப்தானாம் ரித்கு பூரு அப்பு துரு பத்து பதின் இதி சப்தா வஸ்துதா தேஷாம் அ இதி சமாசாந்த பிரத்யயஹ பவதி அ அனக்ஷே அ அனக்ஷே இதி சேதஹ ரிக் பூர் அப்தூஹ் பதாம் அ அனக்ஷே ரிகாத்யந்தஸ்ய சமாசஸ்ய அப்ரத்யயஹ அந்தாவயவஹ அ இதி பிரத்யயஹ பவதி அனக்ஷே அக்ஷ சப்தஸ்ய விஷயே ந அக்ஷேயாதூஹு ததந்தஸ்ய து ந நிஷேதம் அனந்தரம் பஷ்யாமஹ உதாஹரணானி பஷ்யாமஹ அர்தம் ரிச்சஹ ருக் இதி சகாராந்தம் பிராதிபதிகம் ருக் ருச்சௌ ருச்சஹ இதி ருச்சஹ ருச்சோஹு ருச்சாம் ருச்சஹ இதி ஷஷ்டி அர்தம் ருச்சஹ அர்தம் நபும்சகம் இதி தத்புருஷ சமாசஹ தத்ர அர்த ருச்ச அர்தர்ச்ச அர்தர்ச்ச இதி சகாராந்தம் பவதி அகாரஹ சமாசாந்தஹ யோஜ்யதே ததா அர்தர்ச்ச இதி அகாராந்தம் பவதி தத்ர புல்லிங்கஹ அபி விசேஷஹ யத்யபி ருக் சப்தஹ ஸ்திரீலிங்கஹ அர்தர்ச்சாஹ பும்சி ச இதி சூத்ரமஸ்தி அதஹ புல்லிங்கத்வம் பவதி அர்தர்ச்சஹ கஷ்ச ருக் மந்திரஸ்ய ரிக்வேதே யே மந்த்ராஹ தேஷாம் ருச்சஹ இதி நாம தஸ்ய ருச்சஹ அர்த்தம் அர்த்தபாகஹ இத்யர்த்தஹ விஷ்ணோஹ பூஹு புர் சப்தஹ நகரம் இத்யர்த்தஹ விஷ்ணோஹ பூஹு விஷ்ணுபுரம் விஷ்ணுபுர் இதி ரேபாந்தஹ சப்தஹ அப்ரத்யயஹ க்ரியதே சேத் விஷ்ணுபுர விஷ்ணுபுரம் விமலாஹ ஆபஹ யஸ்மின் ஆபஹ ஜலம் இத்யர்த்தஹ அப்சப்தஹ நித்யம் பஹுவசனாந்தஹ அதஹ விமலாஹ ஆபஹ யஸ்மின் இதி சமாசே விமல அப் விமலாப் இதி பகாராந்தம் பவதி அகாரே யோஜிதே விமலாப விமலாபம் சரஹ ராஜ்ஞஹ தூஹு ராஜதுரா தூ சப்தஹ ஸ்திரீலிங்கே ராஜதுர் அகாரஹ பவதி ராஜதுர ஸ்திரீலிங்கம் அஸ்தி இத்யதஹ அஜாத்யதஷ்டாப் இத்யனேன டாப் பவதி சேத் ராஜதுரா அத்ர துர் சப்தஸ்ய விஷயே அனக்ஷே இதி நிஷேதஹ அஸ்தி அக்ஷே து அக்ஷதூஹு அக்ஷஸ்ய தூஹு தூஹு இத்யஸ்ய வெயிட் இத்யஸ்ய அர்த்தஹ பாரஹ அதவா தாயித்வம் ரெஸ்பான்சிபிலிட்டி இத்யர்த்தஹ உபயமபி அஸ்தி அக்ஷஸ்ய தூஹு அக்ஷ இஸ் த ஷாஃப்ட் ஆஃப் அ வீல் அக்ஷஹ இத்யர்த்தஹ தத்ர சக்ரம் இத்யபி அர்த்தஹ அஸ்தி தத்ர ஷாஃப்ட் இத்யபி அர்த்தஹ அஸ்தி அக்ஷஸ்ய தூஹு இத்யத்ர சமாசாந்த பிரத்யயஹ ந பவதி அன்ய பதார்த்தஹ அக்ஷஹ அஸ்தி சேதபி சமாசாந்தஹ ந பவதி த்ருடா தூஹு யஸ்ய ஸஹ த்ருடதூஹு அக்ஷஹ தத்ர அன்ய பதார்த்தஹ அக்ஷஹ அஸ்தி அக்ஷபதார்த்தஹ சமாசே அஸ்தி சேதபி சமாசாந்தஹ ந பவதி அன்ய பதார்த்தஹ அக்ஷஹ அஸ்தி சேதபி சமாசாந்தஹ ந பவதி ருக் பூரப்தூ பதாம் பதின் சப்தஹ சகீனாம் பந்தாஹ பந்தாஹ பந்தானௌ பந்தானஹ இதி ரூபம் தத்ர பதின் சப்தே பிரதின் சப்தாத் அ இதி சமாசாந்தஹ நஸ்தத்திதே இத்தனேன டிலோபே பத்த இதி பவதி சகி பதஹ ராஜபதஹ ராஜ்ஞஹ பந்தாஹ ராஜபதஹ ரம்யஹ பந்தாஹ யஸ்மின் ரம்யபதஹ அத்ர சர்வேஷு சமாசேஷு பவதி தத்புருஷே அபி பவதி பஹுவ்ரீஹௌ அபி பவதி அதஹ சர்வ சமாசாந்த பிரகரணே இதம் சூத்திரம் அஸ்தி ருக் பூர் அப்தூ பதாம் ஏதேஷாம் பஞ்ச சப்தானாம் அ இதி சமாசாந்த பிரத்யயஹ பவதி. अग्रिमं सूत्रमस्ति अक्ष्णो दर्शनात्, अक्ष्णः अदर्शनात् इति पञ्चम्यन्तम्, अच् इति अनुवर्तते समासान्ताः तद्धिताः, अच् इति समासान्तप्रत्ययः विधीयते, अचक्षुः पर्यायात् अक्ष्णः अदर्शनात्, अक्षिशब्दस्य वस्तुतः नेत्रम् इत्यर्थः, किन्तु अदर्शनात् नाम यत्र दर्शनत्वं दर्शनसामर्थ्यं नास्ति, अर्थात् नेत्रभिन्ने अर्थे अपि अक्षिशब्दस्य प्रयोगः क्रियते. अस्माभिः पूर्वमेव एकम् उदाहरणं दृष्टम्, स्थूलाक्षा वेणुयष्टिः, स्थूलानि अक्षीणि यस्मिन् अथवा यस्याम् इति, तत्र अक्षिशब्दस्य वस्तुतः नेत्रम् इत्यर्थः न, कदाचित् तु होल् एकं रन्ध्रम् अक्षि, a hole in the shape of an eye is also called akshi, or certain junctions are also called akshi. Atah tadrisheshu artheshu yada akshi shabdasya prayogaha bhavati, tatra ach iti samasantah bhavati. Siddham padamasti gavakshah iti, window vatayanam ityarthe prayogaha. पूर्वकाले प्रायः गवाम् अक्षि इव, गोः नेत्रं यथा भवति तस्मिन् तस्याम् आकृतौ स्यात्, ऐ मीन् दट् कुड् बी द ओरिजिन् आफ् द टर्म् गवाक्ष, शेप्ड् लैक् द ऐ आफ् अ कौ, इट् इस् समथिङ्ग् टु सी थ्रू, तावदेव. तत्र वस्तुतः अक्षिशब्दः दर्शनार्थे नास्ति, सः गवाक्षस्य दर्शनसामर्थ्यं नास्ति, अतः अक्षि इत्यस्मात् अच् प्रत्यये यस्येति च इत्यनेन इकारस्य लोपे गवाक्ष इति रूपं भवति, गवामक्षि इव गवाक्षः. उपसर्गाद् अध्वनः इति अग्रिमं सूत्रम्. उपसर्गात् अध्वनः, अध्वन् शब्दस्य उपसर्गपूर्वस्य अध्वन् शब्दस्य अच् इति समासान्तः भवति. प्रगतः अध्वानम्, प्राध्वः रथः, सो दट् विच् हस् प्रोग्रेस्ड् आन् द पात्, अध्वा मार्गः इत्यर्थः. अध्वानं प्रगतः इति प्रादिसमासः, अत्यादयः क्रान्ताद्यर्थे द्वितीयया इत्यनेन द्वितीयान्तेन शब्देन प्र इत्यस्य समासः अस्ति. प्र अध्वन् इति स्थिते, प्र इति उपसर्गः, तत्र अध्वन् शब्दः अस्ति, अतः अच् समासान्तः तिलोपः, अध्वन् इत्यत्र अनः लोपः, प्राध्व इति अकारान्तः भवति, प्राध्वः रथः. अन्तिमं सूत्रं प्रकरणे समासान्तनिषेधः, न पूजनात् इति सूत्रम्. न इति अव्ययम्, पूजनात् इति पञ्चमी, समासान्ताः पूजनार्थे समासान्ताः न भवन्ति इति, पूजनार्थात् परेभ्यः समासान्ताः न स्युः इति समासान्तप्रत्ययानां सर्वेषां समासान्तानां निषेधः. दिस् इस् अ जनरल् सूत्र विच् सेस् समासान्तप्रत्ययास् डु नाट् अप्लै when the purvapada indicates respect. Pujanarthaah shabdaah santi, yatha su iti padam, athava ati iti padam. So kechana kanichana avyayani santi, tatra samasanta pratyayaah na bhavanti. Suraja, shobhanah raja, rajyah pujartham gauravartham idam uchyate suraja iti. एवम् अतिक्रान्तः राजानम्, हि हु हेज् एक्सेल्ड् ईवन् द किङ्ग्, राजानम् अतिक्रान्तः अतिराजा. अत्र समासान्तः राजन् शब्दात् तच्च समासान्तः विधीयते, पूजनार्थे न भवति, सुराजः अतिराजः इति न भवति, सुराजा अतिराजा इत्येव. राजाः सखिभ्यः इति तच् न भवति. सामान्यतः एतद् अव्ययद्वयमेव सु अति इति अव्ययद्वयं पूजनार्थे उपयुज्यते तत्र समासान्तप्रत्ययः न भवति इत्यर्थः अनेन लघुसिद्धान्तकौमुद्यां समासप्रकरणं समाप्तम् अद्य द्वन्द्वसमासे समासस्य विधाने चार्थे द्वन्द्वः इत्यनेन च इत्यस्य अर्थे द्वन्द्वसमासः विधीयते चार्थाः चत्वारः समुच्चयः अन्वाचयः इतरेतरयोगः समाहारः इति समुच्चये अन्वाचये वा सामर्थ्यं नास्ति इत्यतः समासः न भवति इतरेतरयोगे समाहारे च समासः भवति द्वन्द्वश्च प्राणितुर्यसेनाङ्गानां सामान्यतः इतरेतरयोगः समाहारः उभयमपि विवक्षानुगुणं भवति किन्तु प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानां च नित्यं समाहारः एव भवति द्वन्द्वे पूर्वनिपातार्थं सूत्रत्रयं द्वन्द्वे घि अजाद्यदन्तम् अल्पांशतरम् इति तेषां विप्रतिषेधं दृष्ट्वा निर्णयः कर्तव्यः राजदन्तादिषु परं तस्मिन् गणे ये शब्दाः तत्र विशिष्य पूर्वनिपातः यस्य भवेत् सः परतः उपयुज्यते इति व्यवस्था अस्ति द्वन्द्वे समासान्तः टच् प्रत्ययः द्वन्द्वाच्युदशः अन्तात् समाहारे इत्यनेन भवति एकशेषस्य विषये किञ्चित् ज्ञातम् पिता मात्रा इत्यनेन माता च पिता च इत्यत्र पितरौ इति पितृशब्दस्य एकशेषः भवति ततः सामान्यसमासान्ताः ऋक् पुर् अप् धुर् पथ् एतेषाम् अ प्रत्ययः भवति अक्ष्णः अच् प्रत्ययः भवति यत्र दर्शनार्थकत्वं नास्ति तत्र अध्वनः अपि अच् समासान्तः भवति उपसर्गात् पूर्वस्य न पूजनात् पूजनार्थकात् परे परतः समासान्तप्रत्ययाः न भवन्ति इति सामान्यः समासान्तनिषेधः चार्थाः के तत्र केषु अर्थेषु द्वन्द्वसमासः भवति द्वन्द्वसमासे पूर्वनिपातनिर्णयः कथं क्रियते सूत्रत्रयमपि लेखनीयम् उदाहरणं दातव्यम् एकशेषम् आश्रित्य टिप्पणीं लिखत एकशेषस्य विषये किञ्चित् लेखनीयम् ततः केचन विग्रहाः दीयन्ते तेषां समस्तपदं लेखनीयं विशिष्य पूर्वनिपातः कस्य भवति इति किञ्चिद् विचिन्त्य समस्तपदं लिखन्तु अवदेव प्रश्नाः सन्ति चेत् प्रष्टुमर्हन्ति अस्तु तर्हि पश्यामः न्यूट् अस्ति अस्तु भगिनि धन्यवादाः समाप्तं कथञ्चित् प्रकरणम् आरब्धं पश्यामः अग्रे राघवी अभ्यासाः यथाशक्ति कृत्वा दीयन्तां कृपया अस्तु मिलामः तर्हि नमस्ते भगिनि
धन्यवादः भगिनि
अस्तु भगिनि येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्